पुंसोमासिधारयर्मन्त्रभोजिष्ठो अध्वरे अवस्वमम् भयद्राजिः त्वम् सुतो नृपादनोदधन्वान्मत्सरिन्दमः इन्द्राय सूरिरन्धसा पुंसश्वानो अद्रिभिरभ्यर्षगणिक्रदत् युवन्तम् सुष्मामुत्तमम् इन्दुर्हिन्वानो अर्षति तिरोवाराण्यव्ययाः हरिर्वाजमचिक्रदत् इन्दो व्यव्यमर्षति विश्रवाम् शिविसौभागा विवाजान् सोमगोमतः आना इन्दो सदग्निनम् लिङ्गोमन्तमश्विनम् भरा सोमसहस्रिणम् अपमाना स इन्दवस्थिरः पवित्रमासवाः इन्द्रम् यामेभिरासत ककुः सोम्यो रस इन्दुरिन्द्राय भूर्यः आयुः पावत आजवे हिन्वन्ति गोरमुस्राजः पवमानम् मधुस्तुतम् अभिगिरासमस्वरन् अभितानोः अजास्वः पूषा यामानि यामनि आभक्षत्कन्याः सुनः
सोमकपर्दिने
घृतम् न पवते मधु आभक्षत्कन्याः सुनः अयन्त आघृणे सुतो घृतम् न पवते शुचि आभक्षत्कन्याः सुनः वाचो जन्तुः कवीनाम् पवस्व सोमधारया देवेषोरत्र दासि आलसेषु धावति श्येनो वर्म विगाहते अभिद्रोडाकणि क्रदत् परिप्रसोमते रसो सर्जि कलसे सुतः श्येनो न तक्तो अर्षति पवस्व सोमबन्दयन्निन्द्राय मधुमत्तमः असर्ग्रम् देववीतये वाजयन्तो रसा इव ते सुतासो मलिन्दमा शुक्रवायुमसृक्षत ग्राम्णा दृण्णा अभिष्टोतः पवित्रम् सोमगच्छसि ततः स्तोत्रे सुवीर्यम् येण दृण्णा अभिष्टोतः पवित्रमतीगाहते रक्षोहावारभव्ययम् चलन्ति यच्च दूरके भयम् विन्दति माभिः पवमानवितज्जाहि पवमानस्व अर्जनः पवित्रेण वितर्षणिः यः पोता सपूनातुनः यत्ते पवित्रमर्जष्यग्ने विदधमन्तरा ब्रह्मतेन पुनीहिनः यत्ते पवित्रमर्चिवदग्ने तेन पुनीहिनः ब्रह्मसवैः पुनीहिनः उभाभ्याम् देवसवितः पवित्रेण सवेन च माम् पूनीः विश्वताः विभिष्टम् देवसवितर्वरिषष्ठैः स्वामधामाभिः अग्ने दक्षैः पुनीहिनः पुनन्तु माम् देवजनाः पुनन्तु वसबोधिया विश्वे देवाः पुनीतमाजातवेदः पुनीहिमाः प्रव्याय स्वप्रस्यन्दस्व सोमविश्रेभिरंसुभिः देवेभ्य उत्तमम् हविः उपप्रियम् पणिप्रतम् युवानमाहुतीवृधम् अगन्मविभ्रातो नमाः अलायस्य वरसुर्ननाशतमापस्व देव सोम आकुञ्जी देवदेव सोम यः पावमानीरध्ये त्रिषेभिः संवृतम् रसम् सर्वम् सभूतमस्वादिस्वधितम् मातरिश्वना पावमानीर्यो अध्ये त्रिषेभिः संवृतम् रसम् तस्मै सरस्वती दुहे क्षीरम् सर्पिर्मधूदरम्